ततो युद्ध परिश्रान्तं समरे चिन्तया स्थितं रावणं जाग्रतो दृष्ट्वा युद्धाय समुपस्थितं दैवतैश्च समागम्य दृष्टुमभ्यागतो रणम् उपागम्या ब्रवीद्रामम् अगस्त्यो भगवान् ऋषिः राम राम महाबाहो शृणु गुह्यं सनातनम् येन सर्वानरीन् वत्स समरे विजयिष्यसि आदित्य हृदयं पुण्यं सर्वशत्रु विनाशनं जयावहं जपे नित्यं अक्षयं
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनं चिन्ताशोकप्रशमनम् आयुर्वर्धनमुत्तमम्
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतं पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरं सर्वदेवात्मको येषः तेजस्वी रश्मिभावनः येष देवासुरगणान् लोकान् पाति गभस्तिभिः येष ब्रह्मा च विष्णु च शिवस्कन्द प्रजापतिः महेन्द्रो धरदकालो यमः सोमोऽध्यपां पतिः पितरो वसवसाद्या यश्विनौ मरुतो मनुः वायोर्वनी प्रजा प्राण ऋतुकर्ता प्रभाकरः
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् सुवर्णसदृशो भानु हिरण्यरेता दिवाकरः
हरिदश्वः सहस्रार्चिः सप्त सप्तिर्मरीचिमान् तिमिरोन्मन्थन शम्भुस्त्वष्टा मार्ताण्ड अंशुमान् हिरण्यगर्भः शिशिर स्तपनो भास्करो रविः अग्निगर्भोदिते पुत्रः शङ्खशिशिरनाशनः व्योमनाथस्तमो भेदी ऋग्यजुस्साम पारगः घनवृष्टि रपां मित्रो विद्यवीथि प्लवङ्गमः आतपे मण्डलि मृत्युः पिङ्गल सर्वतापनः कविर्विश्वो महातेज रक्त सर्वभवोद्भवः
नक्षत्रग्रहताराणा मधिपो विश्वभावनः तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ज्योतिर्गणानां पतये दिनाधिपतये नमः जयाय जयभद्राय हर्यश्वाय नमो नमः नमो नमः सहस्रांशो आदित्याय नमो नमः नम उग्राय वीराय सारङ्गाय नमो नमः नम पद्मप्रबोधाय मार्ताण्डाय नमो नमः ब्रह्मेशानच्युतेशाय सूर्याय दित्यवर्चसे भास्वते सर्वभक्षाय रौद्राय विपुषे नमः
अग्न्याय हिमग्न्याय शत्रुघ्नायामितात्मने कृतघ्नज्ञाय देवाय ज्योतिषाम्पतये नमः।
तप्तचामीकराभाय वनये विश्वकर्मणे नमस्तमोऽभिनिज्ञाय रुचये लोकसाक्षिणे नाशयत्येष वै भूतं तदैव सृजति प्रभुः पायत्येष तपत्येष वर्षत्येष गभस्तिभिः येष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः येष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणां वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः।
येन मापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च इति यन्पुरुषः कश्चिन् नावसीदति राघव।
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिं एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि। अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि। एवमुक्त्वा तदागस्त्यो जगाम च यथा गतम्। एतच्छ्रुत्वा महातेजा नष्टशोको भवत्तदा धारयामास सुप्रीतो राघव प्रयतात्मवान् आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्।
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागतम् सर्वयत्नेन महता वधे तस्य धृतोऽभवत्।
अथ रविरवदनिरीक्ष्य रामं मुदितमनाः परमं प्रहृष्ट्यमानः निशिचरपते समक्षं विदित्वा सुरगण मध्यगतो वचस्त्वरेति।